अथ श्री हनुमदष्टकम् वैशाखमास कृष्णायां दशमी मन्दवासरे पूर्वभाद्रासु जाताय मङ्गलं श्री हनुमते गुरुकौरसपूर्णाय फलापूपप्रियाय च तातामाणिक्यहस्ताय मङ्गलं श्री हनुमते सुवर्चलागळत्राय चतुर्भुजधराय च पुष्ट्रारूढाय वीराय मङ्गलं श्री हनुमते दिव्यमङ्गलदेहाय पीताम्बरधराय च तप्तकाञ्चनवर्णाय मङ्गलं श्री हनुमते भक्तरक्षणशीलाय जानकीशोकहारिणे जगत्पावकनेत्राय मङ्गलं श्री हनुमते पम्पातीरविहाराय सौमित्रिप्राणदायिने सृष्टिकारणभूताय मङ्गलं श्री हनुमते रम्भावनविहाराय सुगत्मातटवासिने सर्वलोकैककण्ठाय मङ्गलं श्री हनुमते पञ्चाननाय भीमाय कालनेमिहराय च कौण्डिन्यगोत्रजाताय मङ्गलं श्री हनुमते ॐ